ततस्तां शिंशपामूले जानकीं पर्यवस्थिताम् अभिवाद्याब्रवीत् दृष्ट्या पश्यामि त्वामिहाक्षताम् ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः सरैः सुसङ्कुलां कृत्वा लङ्कां परबलार्दनः मां नयेद्यदि काकुत्स्थः तत्तस्य सदृशं भवेत् तद्यथा तस्य विक्रान्तम् अनुरूपं महात्मनः भवेदाहवशूरस्य तदा त्वमुपपादय तदर्थोपहितं वाक्यं प्रश्नितं हेतुसंहितं निशम्य हनुमांस्तस्य वाक्यमुत्तरमब्रवीत् क्षिप्रमेष्यति काकुत्स्थः हर्यरक्षप्रवरैर्वृतः यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति एवमाश्वास्य वैदेहि हनुमान् मारुतात्मजः गमनाय मतिं कृत्वा वैदेहीम् अभ्यवादयति ततः कपिशार्दूलः स्वामिसन्दर्शनात्सुकः आरोह गिरिश्रेष्ठम् अरिष्ठमरिवर्दनः तुङ्गपद्मगजुष्टाभिः नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोधैः शृङ्गान्तरविलम्बिभिः बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः उन्मिषन्तमिवोद्धूतैः लोचनैरिव धातुभिः तोयौघरिस्वरैर्मन्त्रैः प्राथीतमिव सर्वतः प्रगीतमिव विस्पष्टैः नानाप्रस्रवणस्वनैः देवदारुभिरत्युच्चैः ऊर्ध्वबाहुमिव स्थितम् प्रपातजलनिर्घोषैः प्राकृष्टमिव सर्वतः वेपमानमिव श्यामैः कम्पमानैः शरद्वनैः वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः निःश्वसन्तमिवावर्षाति घोरैराशिविषोत्तमैः नीहारकृतगम्भीरैः ध्यायन्तमिव गह्वरैः मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः जृम्भमानमिवाकाशे शिखरैरभ्रशालिभिः कूटैश्च बहुधाकीर्णैः शोभितं बहुगन्धरैः शालतालाश्वगर्णैश्च वंशैश्च बहुभिर्वृतं लतावितानैर्विततैः पुण्यवद्भिरलङ्कृतं नानामृगगणाकीर्णं धातुनिष्यन्तभूषितं बहुप्रश्रवणोपेतं शिलासञ्चयसङ्कटं महर्षियक्षगन्धर्व किन्नरोरगसेवितं लतापादपसम्बाधं सिंहाद्धुषितकन्दरं व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलोदकं तमारुरोह हनुमान् पर्वतं प्लवगोहत्तमः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः तेन पादतलाक्रान्त रम्येषु गिरिसानुषु सघोषाः समशीर्यन्त शिलाश्चूर्णीकृताहस्ततः सतमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ददर्श सागरं भीमं मीनोरगनिषेवितं समारुतैवाकाशं मारुतस्यात्मसम्भवः प्रभेदे हरिशार्दूलः दक्षिणाम् उत्तरादिशं सतदा पीडितस्तेन कपिना पर्वतोत्तमः ररासहृदैर्भूतैः प्रविशन् वसुधातलं कम्पमानैश्च शिखरैः पदद्भिरपि च द्रुमैः तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः निपेतुर्भूतले रुग्णाः ಚಕ್ರಾಯುಧ ಹತಾಯಿವ ಕಂದರೋದರ ಸಂಸ್ಥಾನಾಂ ಪೀಡಿತಾನಾಂ ಬಹೋಜಸಾಂ ಸಿಂಹಾನಾಂ ನಿನದೋ ಭೀಮಃ ನಭೋಭಿಂದನ್ ಹಿ ಶುಶ್ರುವೇ ಶಸ್ತವ್ಯಾವೃದ್ಧವಸನ ವ್ಯಾಕುಲೀಕೃತ ಭೂಷಣಾಃ ವಿದ್ಯಾಧರ್ಯ ಸಮುತ್ಪೇತು ಸಹಸಾ ಧರಣೀಧರಾತಿ ಅತಿ ಪ್ರಮಾಣ ಬಲಿನಃ ದೀಪ್ತಜಿಹ್ವಾ ಮಹಾವಿಷಾಃ ನಿಪೀಡಿತ ಶಿರೋಗ್ರೀವಾಃ ವ್ಯವೇಷ್ಟಂತ ಮಹಾಹಯಾಃ ಕಿನ್ನರೋರಗ ಗಂಧರ್ವ ಯಕ್ಷ ವಿದ್ಯಾಧರಾಸ್ತದಾ ಪೀಡಿತಂ ತಂ ನಗವರಂ ತ್ಯಕ್ತ್ವಾ ಗಗನಮಾಸ್ಥಿತಾಃ ಸಚ ಭೂಮಿಧರ ಶ್ರೀಮಾನ್ ಬಲಿನಾ ತೇನ ಪೀಡಿತಃ ಸವೃಕ್ಷ ಶಿಖರೋದಗ್ರಹ ಪ್ರವಿವೇಶ ರಸಾತಲಂ ದಶಯೋಜನ ವಿಸ್ತಾರಃ ತ್ರಿಂಶದ್ಯೋಜನ ಮುಚ್ಛಿತಃ ಧರಣ್ಯಾಂ ಸಮತಾಂ ಯಾತಃ ಸಬಭೂವದರಾಧರಃ ಸಲಿಲಂಘಯಿಷುರ್ಭೀಮಂ ಸಲೀಲಂ ಲವಣಾರ್ಣವಂ ಕಲ್ಲೋಲಾಸ್ಫಾರಬೇಲಾಂತಂ ಉತ್ತಪಾತನ ಭೋ ಹರಿಃ ಇತ್ಯಾರ್ಷೇ ಶ್ರೀಮದ್ ರಾಮಾಯಣೆ ವಾಲ್ಮೀಕಿಯಾದಿಗಾವ್ಯೆ ಚತುರ್ಭಿ ಸಹಸ್ರಿಕಾಯಾಮ ಸಂಹಿತಾಯಾಮ ಸುಂದರಕಾಂಡೇ ಷಟ್ಪಂಚಾಶತ್ ಸರ್ಗಃ.